प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मू गतसायं ओडिशा राज्यस्य चतुर्दिवसीय यात्रायै भुवनेश्वर नगरं सम्प्राप्तवती। राष्ट्रपतेः स्वागतं ओडिशायाः राज्यपालः रघुबर दासः, मुख्यमंत्री मोहन चरण माझी जेत्यादयः गणमान्य जनाः विमानस्थानके कृतवन्तः। राष्ट्रपते गतसायं भुवनेश्वरे उत्कलमणि पण्डित गोपबन्धुदासस्य षण्णवतितमे पुण्यतिथि समारोहे आयोजिते कार्यक्रमे भागं भजितवती। अद्य राष्ट्रपति मुर्मू भगवतः जगन्नाथस्य, बलभद्रस्य, देव्याः सुभद्रायाः, भगवतः सुदर्शनस्य च विश्वप्रसिद्धा रथयात्रायाः साक्षी भविष्यति, यत् अद्य पवित्र तटीय पुरीनगरे भविष्यति। स्वीय यात्रावधौ राष्ट्रपति श्वः भुवनेश्वरस्थितस्य उदयगिरि खण्डगिरि गुहयोः यात्रां करिष्यति। विभूति कानूनको कलाशिल्प महाविद्यालयस्य, उत्कल संस्कृति विश्वविद्यालयस्य च छात्रैः सह संवादं करिष्यति। भुवनेश्वर समीपे हरिदमदा ग्रामे ब्रह्मकुमार्याः दिव्यनिवृत्तिकेन्द्रस्य उद्घाटनं तस्मिन्नेव दिने स्थिरतायै जीवनशैली इति अभियानस्य अपि शुभारम्भो करिष्यति। राष्ट्रपते दिल्लीं प्रत्यागमनात् पूर्वं मंगलवासरे भुवनेश्वरनगरे राष्ट्रिय विज्ञान शिक्षा अनुसंधान संस्थायाः NISER इत्यस्य त्रयोदशतमे स्नातक समारोहे भागं भजिष्यति। संसदः वित्त संकल्पना सत्रस्य आरम्भः अस्य मासस्य द्वाविंशति दिनांकात् भविष्यति। संसदीय कार्याणां मन्त्री किरेन रिजिजुः एकस्मिन् सामाजिकान्तर्जालीय सन्देश माध्यमेन सूचितवान् यत् सत्रम् अगस्त मासस्य द्वादश दिनांक पर्यन्तं निरन्तरं प्रचलिष्यति। सः अवदत् चतुर्विंशत्यधिक द्विसहस्र पञ्चविंशत्यधिक द्विसहस्रतम वर्षस्य केन्द्रीय वित्त संकल्पनापत्रं जुलाई त्रयोविंशति दिनांके लोकसभायां प्रस्तुतं भविष्यति। श्री रिजिजुः अवदत् यत् राष्ट्रपतिः द्रौपदी मुर्मू भारत सर्वकारस्य अनुशंसया वित्त संकल्पना सत्राय संसदः द्वयोः सदनयोः आवाहनस्य प्रस्तावस्य अनुमोदनं कृतवती। संसदीय कार्याणां राज्यमन्त्री अर्जुन राममेघवालः दृश्यांकन माध्यमेन अवदत् यत् आर्थिक सर्वेक्षण प्रतिवेदनं जुलाई मासस्य द्वाविंशतिः दिनांके प्रस्तुतं भविष्यति। नरेन्द्रमोदी सर्वकारस्य तृतीय कार्यकालावधौ प्रस्तुतं प्रथमं वित्त संकल्पनापत्रं भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी ह्यः ब्रिटेनस्य प्रधानमन्त्रिरूपेण निर्वाचितस्य कीर स्टार्मर इत्यनेन सह वार्तालापं कृत्वा शुभकामनाः प्रदत्तवान्। एकस्मिन् सामाजिक संचारपटले श्रीमोदी अवदत् यत् उभयोः देशयोः जनानां प्रगतेः, समृद्धेः, वैश्विकहिताय च सुदृढ भारत ब्रिटेन आर्थिक सम्बन्धयोः गभीरीकरणाय उभौ पक्षौ प्रतिबद्धौ स्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना इस्लामिक गणराज्यस्य ईरानदेशस्य राष्ट्रपतित्वेन निर्वाचितस्य मसूद पेजेश्किया इत्यस्य अभिनन्दनं कृतम्। सामाजिक संचारपटले श्रीमोदी अवदत् यत् भारत ईरानदेशयोः जनानां क्षेत्रस्य च हिताय मधुकरं दीर्घकालिकं च द्विपक्षीय सम्बन्धम् इतोप्यधिकं सुदृढं कर्तुं पेजेश्किया महोदयेन सह निकटतया कार्यं कर्तुम् उत्सुकः अस्ति। क्रिकेट क्रीडायां गतसायं हरारे इत्यत्र पञ्चात्मिक्याः श्रृंखलायाः प्रथमे विंशति प्रति विंशति अन्ताराष्ट्रिय क्रिकेट क्रीडायां जिम्बाम्बे दलेन भारतं त्रयोदश धावनांकैः पराजितम्। भारतेन पणकं विजित्य प्रथमं कन्दुकक्षेपणं चितम्। इति वार्ताः।